बालकानां कृते बाइबल प्रस्तूयते स्वर्गम ईश्वरस्य सुंदरं गृहं लेखकेन एडवर्ड ह्यूजेस www.m1914.org। यदा यीशुः पृथ्वीयाम् आसन् तदा तेन स्वर्गस्य विषये स्वशिष्यान् अवदत् सः एनं मम पितुः गृहम् उक्तम् एवं च उक्तम् तत्र बहवः भवनानि सन्ति एकं सुन्दरं विशाल भवनं गृहं च अस्ति स्वर्गः कस्यापि लौकिकगृहेण सुन्दरं विशालं सः अस्ति। यीशुः उक्तवान् अहं गत्वा भवतां कृते गृहनिर्माण करणार्थं गच्छामि तथा च अहं गच्छामि एवं गृहनिर्माणं कृत्वा पुनः आगत्य त्वां प्राप्स्यामि। यीशुः स्वर्गं गत्वा यदा मृतरूपेण आगतः यदा तेषां शिष्यः तम् अपशन्यत् तदा ते तं नीतवन्तः तदा एकः मेघः तम् आच्छादितवान्। तदा तः ईसाई जनाः यीशुद्वारा आगमनस्य तं प्राप्ते प्रतिज्ञा स्मरन्ति। यीशुः उक्तवान् सः अकस्मात् अगमिष्यति यदा किञ्चित् आशा भविष्यति परच तेषां ईसाई जनानां किं के यीशुः आगमनात् पूर्वमेव म्रियन्ते। बाइबल वदति ते यीशुः सह गच्छन्ति शरीरेण अनुपस्थितः यीशुः सह उपस्थिति। रहस्योद्धाटनं बाइबल अन्तिमं पुस्तकं कथयति यत् स्वर्गं कियं सुन्दरम् अति सुन्दरम् एतत् यत् बहु सुन्दर मार्ग देवस्य गृहम् अस्ति ईश्वरः सर्वत्र अस्ति परच तस्य सिंहासनं स्वर्गे अस्ति। देवदूताः एवं अन्ये स्वर्गवासिनः देवस्य अर्चना कृतवन्तः अतः ये ईश्वरस्य जनाः ये मृतः एवं स्वर्ग गतवन्तः ते सर्वे ईश्वरस्य स्तुतिं कुर्वन्ति गीतं गायन्ति। अत्र ततः गीतस्य कश्चन शब्द भवान् योग्या अस्ति कृते भवान् अस्मान् भगवत् कृते मुक्तं कृतः तेन रक्तेन भवान् अस्माभिः सर्वाशु गणजातिषु देशेषु च तथा च अस्मान् नृपाः अर्चकाः च कृतवान्। बाइबलस्य बहवः पृष्ठाः स्वर्गं नूतन जेरुसलेम रूपेण वन्दित एतत् बहु विशालं बहि एकं विशाल भित्तिरूपेण सा भित्तिः माणिक्यशिलायाः पारदर्शी अस्ति अनेकेन वर्णेन बहुमूल्यस्य वर्णस्य भित्ति अपारः नगस्य प्रत्येक द्वारणि बहुमूल्य माणिक्येन निर्मितम् तत् माणिक्यं द्वाराणि कदापि न पिदधति अस्तु अन्ते गत्वा परितः अवलोक्यतु अहो स्वर्गमतीव सुन्दरं सह स्वर्णेन निर्मितः यथा सफटिकं तत्र तु मार्गपि स्वर्णेन। ईश्वरस्य सिंहासनात् सुन्दरं जीवनस्य दायिनी एका नदी प्रवहति नदीम् उभयतः जीवनस्य वृक्षः अस्ति यः प्रथमे आदमस्य उद्याने प्राप्तः एतत् वृक्षं बहु विशिष्टम् अस्ति एषः द्वादश भिन्न भिन्न फलानि द्वादश मासेषु ददाति तथा च अस्य पत्राणि राष्ट्रस्य उपचाराय सन्ति। स्वर्गे प्रकाशार्थं सूर्यचन्द्रस्य आवश्यकता न वर्तते देवस्य स्वस्य महिमा अस्मिन् प्रकाशेन पूर्यति तत्र रात्रिः न भवति। स्वर्गे सर्वे मित्रमिव आचरन्ति एतावत् यत् तत्र पशवः अपि मित्ररूपेण निवसन्ति ते ग्राम्य पशवः इव मैत्रीपूर्ण रूपेण निवसन्ति वृकः मेषः मिलित्वा तृणं खादन्ति अत्र सिंहः अपि वृषभ इव तृणं खादति। यहोवा वदति ते सर्वे मम पर्वतं नष्टं न करिष्यन्ति पीडां न दास्यन्ति। वयम् अनुभवाम यत् अस्माकं परितः स्वर्गे कश्चन विषयाः न सन्ति यथा कश्चन क्रुद्ध शब्द वयं श्रृणम कः अपि युद्धं न कुर्वन्ति कः अपि स्वार्थी न सन्ति द्वारे तालकानि न सन्ति यते हि तत्र चौराः न सन्ति कोऽपि अस्द्वाचीन घातकः इन्द्रजालिकः औदारिका अन्ये दुष्टाः न सन्ति स्वर्गेन कश्चित् प्रकारेण पापः नास्ति ईश्वर सान्निध्यौ अश्रवः न सन्ति यदा कदा अस्मिन् लोके जना दुखेन रुदन्ति परच स्वर्गे ईश्वरं सर्वेषां अश्रुन् परिमार्जयन्ति। तत्र स्वर्गे मृत्युः नास्ति, देवस्य जनाः सदैव देवं सह निवसन्ति। तत्र दुःखं नास्ति, रोदनं नास्ति, पीडा नास्ति, कोऽपि व्याधि नास्ति, पृथक्त्वं नास्ति, अन्त्येष्टि नास्ति। स्वर्गे देवेन सह सर्वे प्रसन्ना सन्ति। सर्वश्रेष्ठ स्वर्ग बालकानां बलिकानां कृते अस्ति, ये यीशुं स्वस्थ उद्धर्ता रूपेण विश्वसन्ति तथा स्वस्य देवं स्वीकृतवन्तः। स्वर्गे एकं पुस्तकम् अस्ति, तस्य नाम लैम्ब ऑफ लाइफ अस्ति। एतत् जनानां नाम्ना पूरितम्। भवान् जनाति केषा नमानि, तेषां ये यीशुं प्रति स्वं समर्पितवन्तः, किं भवता नाम अस्ति तत्र? जीवनस्य पुस्तकम्। बाइबलस्य अन्तिम शब्दानि स्वर्गस्य विषये अतिशोभनानि निमन्त्रणम् अस्ति। आत्मा कथयति आगच्छ, तथा यः शृणोति एतत् शब्दान् तम् आगच्छतु, यस्मै पिपासा अस्ति आगच्छन्तु। यः कश्चित् इच्छति, सः जीवनस्य जलं स्वीकरोतु, आगच्छ। स्वर्गम् ईश्वरस्य सुन्दरं गृहम्। बाइबल इति कथा भगवत वाक्यं प्राप्नुयाम जॉन 14, 2 कोरिन्थीन 5, विवृत्ति 4:21-22। भवतां वाक्यम् अस्माभिः प्रकाश्यते, भक्ति गीत क्रमांक 119-130। देवः जानाति वयम् अनुचित कार्यान् कृतवन्तः, यान् स पापं कथयति। पापस्य दण्डनं मृत्यु वर्तते। देवः अस्मान् स स्नेहति, सः स्वीकीयम् एकमेव पुत्रः जीजस् इत्ययं प्रेषितवान्, यः क्रॉस चिह्ने मृतः तथा अस्माकं पापानां कृते दण्डे प्राप्तवान्। तदा सः पुनरागत्य जीवनं प्राप्तवान्, स्वर्गश्च गतवान्। अधुना देवः स्वपापानां कृते क्षमां दातुं शक्यते। यदि त्वं स्वपापैः निवर्तनं वाच्छसि, तदा स्वदेवेन प्रार्थय, हे देव, अहं विश्वसामि यत् भवानेव देव तथा मानव रूपं धृत्वा मदीयं पापानां कृते निर्यायति एवं अधुना पुनः अधिवसते। हे देव, मम जीवने आगत्य मदीयं पापैः विमुच्छतु, येन अधुना मां नूतन जीवनस्य प्राप्तिर्भवेत् एवं कस्य चिह्निन्ने भवता समीपे सदैव निवसामि। मम सहायं करोतु, यद् अहं भवताम् आज्ञां परिपालयामि तथा भवताम् समीपे पुत्रवत् एवं निवसामि। बाइबल पठन्तु तथा च देवेन सह प्रतिदिनं वार्ता कुर्वन्तु।